गौर्ध्वयति मरुताम् श्रवस्यर्माता मघोनाम् युक्ता वह्ने रथानाम् यस्या देवा उपस्थे व्रता विश्वे धारयन्ते सौर्यामासा दृशेकम् तत्सुना विश्वे अर्या सदा गृणन्ति गारवाः मरुतः सोमपीतये अस्ति सोमा अयम् सदः पिबन्त्यस्य मरुताः उत स्वराजो अश्विना पिबन्त मित्रो अर्जमादना बोधस्य वरुणः त्रिषधस्थस्य जापतः उदान्वस्य जोषमाम् इन्द्रस्वतस्य गोपतः प्रातरहोते एव मत्सति कदत्विषन्त सूरज स्थिर आप इव श्रुधाः अर्षन्ति बोधदक्षसः कद्वो अद्य महानाम् देवानामवो वृणे मना च तस्मवर्चसाम् आजे विश्वा पार्थिवानि पप्रथम् रोचनादिवः मरुतः सोमपीतये त्यान्न बोधदक्षसो दिवो वो मरुतो हुवे अस्य सोमस्य पीतये ध्यान्नजे विरोदसीतस्तभुर्मरुतो हुवे अस्य सोमस्य पीतये यन्न मारुतम् गडङ्गिरिष्ठाम् वृषणम् हुवे अस्य सोमस्य पीतये